हरिः ॐ आतो न इन्द्रक्षुमन्तं चित्रं ग्राभं संगृभाय महाहस्ते दक्षिणेन विद्माहित्वा आतु विकूर्मिं तु विदेष्णं तु विमघं तु विमात्रमवो ओभिः नहित्वा आशूरदेवानमर्ता आसोदित्सं तं भीमं नगां वारयन्ते ये तोन्विन्द्रं स्तवामेशानं वस्वस्वराजं न राधसामर्दिशन्नः प्रस्तोऽशतपगासिषच्छ्रवत्सामगीयमानम् अभिराधसा जुगुरत् आनो भरदक्षिणेनाभिसव्येन प्रमृश इन्द्रमानो वसोर्निर्भाक् उपक्रमस्वाबरदृशदादृष्णो जनानाम् अदा आशुष्टरस्य वेदाः इन्द्रयवनुते अस्ति वा जो विप्रेभिः सनित्वः अस्माभिः सुतं सनुहि सद्योजुवस्ते वाजा आ अस्मभ्यं विश्वश्चन्द्राः वशैश्च मक्षूजरन्ते निषुषीदगणपते गणेषु त्वामा आहुर्विप्रतमं कवीनां न ऋते त्वत्क्रियते किंचन रे महामर्कं मघवच्चित्रमर्च अभिज्ञानो भगवन्नादमानां सखे भोदिवसुपते सखीनां रणं कृतिरणकृत्सत्यशुष्मा भक्ते चिदा भज राये अस्मान् गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनष्टृण्वन्नोतिभिः सीदसादनम् ॐ शान्तिः शान्तिः शान्तिः।